ओम नमो भगवते वासुदेवाय। अथ 90तमोऽध्यायः। श्रीशुक उवाच। सुखं स्वपुर्यां निवसन् द्वारकायां श्रियः पतिः सर्वसम्पत्सवृद्धायां जुष्टायां वृष्णिपुङ्गवैः स्त्रीभिश्चोत्तमवेषाभिर्नवयौवनकान्तिभिः कन्दुकादिभिर्हर्म्येषु क्रीडन्तीभिस्तडिद्युभिः नित्यं सङ्कुलमार्गायां मदच्युद्भिर्मतङ्गजैः स्वलङ्कृतैर्भटैरश्वैरथैश्च कनकोज्ज्वलैः उद्यानोपवनाध्यायां पुष्पितद्रुमराजिषु निर्विशद्भृङ्गविहगैर्नादितायां समन्ततः रेमे षोडशसाहस्रपत्नीनामेकवल्लभः तावद्विचित्ररूपोऽसौ तद्गृहेषु महर्धिषु प्रोत्फुल्लोत्पलकल्लारकुमुदाम्भोजरेणुभिः वासितामलतोयेषु कूजद्विजकुलेषु च विजहारविगाह्याम्भो हृदिनीषु महोदयः कुचकुङ्कुमलिप्ताङ्गः परिरब्धश्च योषिताम् उपगीयमानो गन्धर्वैर्मृदङ्गपणवानकान् वादयद्भिर्मुदा वीणां सूतमागधवन्दिभिः शिच्यमानोच्युतस्ताभिर्हसन्तीभिः स्मरेचकैः प्रतिसिञ्चन् विचिक्रीडे यक्षीभिर्यक्षराडिव ताक्लिन्नवस्त्रविवृतो रुकुचप्रदेशा सिञ्चन्त्य उद्धृतबृहत्कबरप्रसूनाः कान्तं स्मरेचकजिः रसयोपगुह्य जातस्मरोत् सवलसद्वदना विरेजुः कृष्णस्तु तत्स्तनविषज्जितकुङ्कुमस्रक् क्रीडाभिषङ्गधुतकुन्तलवृन्दबन्धः सिञ्चन्मुहुर्युवतिभिः प्रतिसिच्यमानो रेमे करेणुभिरिवेपपतिः परीतः नटानां नर्तकीनां च गीतवाद्योपजीविनां क्रीडालङ्कारवासांसि कृष्णोदात्तस्य च स्त्रियः कृष्णस्यैवं विहरतो गत्यालापेक्षितस्मितैः नर्मक्ष्वेलिपरिस्वङ्गैः स्त्रीणां किल हृता धियः ऊचुर्मुकुन्दैकधियो गिर उन्मत्तवज्जडम् चिन्तयन्त्योरविन्दाक्षं तानि मे गदतः शृणु महिष्य ऊचुः कुररिविलपसि त्वं वीतनिद्रानशेषे स्वपिति जगति रात्र्यामीश्वरो गुप्तबोधः वयमिव सखि कच्चिद् गाढनिर्भिन्नचेता नलिननयनहासोदारलीलेक्षितेन नेत्रे निमीलयसि नक्तमदृष्टबन्धुः त्वं रोरवीषि करुणं बत चक्रवाकि दास्यं गता वयमिवाच्युतपादजुष्टां किं वा स्रजं स्पृहयसे कबरेण वोढुम् भो भो सदा निष्ठनसे उदन्वन् न लब्धनिद्रोऽधिगत प्रजागरः किं वा मुकुन्दापहृतात्मलाञ्छनः प्राप्तां दशां त्वं च गतो दुरत्ययां त्वं यक्ष्मणा बलवतासि गृहीत इन्दो क्षीणस्तमो न निजदीधितिभिः क्षिणोषि कच्चिन्मुकुन्दगदितानि यथा वयं त्वं विस्मृत्य भो स्थगितगीरुपलक्ष्यसे नः किं त्वा चरितमस्माभिर्मलया निलते प्रियं गोविन्दापाङ्गनिर्भिन्ने हृदिरयसि न स्मरं मेघश्रीमन्स्तमसि दयितो यादवेन्द्रस्य नूनम् श्रीवत्साङ्कं वयमिव भवान् ध्यायति प्रेमबद्धः अत्युत्कण्ठः सबलहृदयोऽस्मद्विधो बाष्पधाराः स्मृत्वा स्मृत्वा विसृजसि मुहुर्दुःखदस्तत्प्रसङ्गः प्रियरावपदानि भाषसे मृतसञ्जीवकया नया गिरा करवाणि किमद्यते प्रियं वद मे वल्गितकण्ठकोकिल न चलसि न वदस्युदारबुद्धे क्षितिधर चिन्तयसे महान्तमर्थम् अपि बत वसुदेव नन्दनाङ्घ्रिं वयमिव कामयसे स्तनैर्विधर्तुम् शुष्यध्रदा कर्षिता बत सिन्धुपत्न्यः सम्प्रत्यपास्तकमलश्रिय इष्टभर्तुः यद्वद्वयं मधुपतेः प्रणयावलोक मप्राप्यमुष्टहृदया पुरुकर्षिता स्म हंस स्वागतमास्यतां पिबपयो ब्रूयङ्गशौरे कथां दूतं त्वां नु विदाम कच्चिदजितः स्वस्त्यास्त उक्तं पुरा किं वा नश्चलसौहृदः स्मरति तं कस्मात् भजामो वयम् क्षौद्रालापय कामदम् श्रियमृते सैवैकनिष्ठा स्त्रियाम्। इति दृशेन भावेन कृष्णे योगेश्वरेश्वरे क्रियमाणेन माधव्यो लेभिरे परमाम् गतिम्। श्रुतमात्रोऽपि यः स्त्रीणाम् प्रसह्याकर्षते मनः उरुगायोरुगीतो वा पश्यन्तीनाम् कुतः पुनः। या सम्पर्यचरन् प्रेम्णा पादसंवाहनादिभिः जगद्गुरुम् भर्तृबुद्ध्या तासाम् किम् वर्ण्यते तपः। एवम् वेदोदितम् धर्ममनुतिष्ठन् सताम् गतिः गृहम् धर्मार्थकामानाम् मुहुश्चादर्शयत्पदम्। आस्थितस्य परम् धर्मम् कृष्णस्य गृहमेधिनाम् आसन् षोडशसाहस्रम् महिष्यस्य शताधिकम्। तासाम् स्त्रीरत्नभूतानामष्टौ याः प्रागुदाहृताः रुक्मिणी प्रमुखा राजन् तत्पुत्राश्चानुपूर्वशः एकैकस्याम् दश दश कृष्णोजी जनतात्मजान्। यावत्यात्मनो भार्या अमोघगतिरीश्वरः तेषामुद्दामवीर्याणामष्टादश महारथाः आसन्नुदार यशसस्तेषाम् नामानि मे शृणु। प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान् भानुरेव च साम्बो मधुर्बृहद्भानुश्चित्रभानुर्भृकोरुणः पुष्करो वेदबाहुश्च श्रुतदेवः सुनन्दनः चित्रबाहुर्विरूपश्च कविर्न्यग्रोध एव च। एतेषामपि राजेन्द्रतनुजानाम् मधुद्विषः प्रद्युम्न आसीत् प्रथमः पितृवत् रुक्मिणीसुतः स रुक्मिणो दुहितरमुपये मे महारथः तस्मात् सुतो निरुद्धोऽभून्नागायुतबलान्वितः। स चापि रुक्मिणः पौत्रीम् दौहित्रो जगृहे ततः वज्रस्तस्याभवत् यस्तु मौसलादवशेषितः। प्रतिबाहुरभूत्तस्मात् सुबाहुस्तस्य चात्मजः सुबाहो शान्तसेनोऽभूच्छतसेनस्तु तत्सुतः। नये तस्मिन् कुले जाता अधना अबहुप्रजाः अल्पायुषोऽल्पवीर्याश्च अब्रह्मण्याश्च जग्गिरे यदुवंशप्रसूतानाम् पुंसाम् विख्यातकर्मणाम् सङ्ख्या न शक्यते कर्तुमपि वर्षायुतैर्नृप। तिस्रकोट्यसहस्राणामष्टाशीतिशतानि च आसन् यदुकुलाचार्याः कुमाराणामिति श्रुतम्। सङ्ख्यानम् यादवानाम् कः करिष्यति महात्मनाम्। यत्रायुतानामयुतलक्षेणास्ते स आहुकः देवासुरा हवहता दैतेया ये सुदारुणाः ते चोत्पन्ना मनुष्येषु प्रजादृप्ता बभाधिरे तन्निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले अवतीर्णाः कुलशतम् तेषामेकाधिकम् नृप तेषाम् प्रमाणम् भगवान् प्रभुत्वेनाभवद्धरिः। ये चानुवर्तिनस्तस्य ववृतुः सर्व यादवाः शय्यासनाटनालापक्रीडास्नानादिकर्मसु न विदुः सन्तमात्मानम् वृष्णयः कृष्णचेतसः। तीर्थम् चक्रे नृपोनम् यदजनियदुषु स्वसरित्पादशौचम् विद्विट्स्निग्धास्वरूपम् ययुरजितपरा श्रीर्यदर्थेऽन्ययत्नः यन्नामामङ्गलघ्नम् श्रुतमथ गदितम् यत्कृतो गोत्रधर्मः कृष्णस्यैतन्न चित्रम् क्षितिभरहरणम् कालचक्रायुधस्य जयति जननिवासो देवकी जन्मवादो यदुवरपरषत्स्वैर्दोर्भिरस्यन्न धर्मम् स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन व्रजपुरवनितानाम् वर्धयन् कामदेवम्। इत्थम् परस्य निजवर्त्मरिरक्षयात् लीलातनोस्तदनुरूपविडम्बनानि कर्माणि कर्मकषणानि यदूत्तमस्य श्रूयादमुस्य पदयोरनुवृत्तिमिच्छन् मर्त्यस्तयानुसवमेधितया मुकुन्द श्रीमत्कथाश्रवणकीर्तनचिन्तयैति तद्धाम दुस्तरकृतान्तजवापवर्गम् ग्रामाद्वनम् क्षितिभुजोऽपि ययुर्यदर्थाः। मर्त्यस्तयानुसवमेधितया मुकुन्द श्रीमत्कथाश्रवणकीर्तनचिन्तयैति तद्धाम दुस्तरकृतान्तजवापवर्गम् ग्रामात्वनम् क्षितिभुजोऽपि ययुर्यदर्थाः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे वैयाधिक्याम् अष्टादशसाहस्र्याम् पारमहंस्याम् संहितायाम् दशमस्कन्धे उत्तरार्धे श्रीकृष्णचरितानुवर्णनम् नाम नवतितमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।